राष्ट्रदेशे विशदे तिरम्ये ज्योतिर्मयं चंद्रकलावतंसं भक्ति प्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये तं सोमनाथं शरणं प्रपद्ये श्रीशैल संगे विभुधाति संगे तुलाद्रि तुंगेति मुदा वसंतं तमर्जुनं मल्लिका पूर्वमेकं नमामि संसार समुद्र सेतुं नमामि संसार समुद्र सेतुं अवंतिकायां विहितावतारं मुक्ति प्रदानाय च सज्जनानां अकाल मृत्योः परिरक्षणार्थं वंदे महाकाल महासुरेशं वंदे महाकाल महासुरेशं कावेरिका नर्मदयोः पवित्रे समागमे सज्जन तारणाय सदैव मांधात्रिपुरे वसन्तं ओंकारमीशं शिवमेकमीडे ओंकारमीशं शिवमेकमीडे पूर्वोत्तरे प्रज्वलिका निधाने सदा वसन्तं गिरिजासमेतं सुरासुराराधित पादपद्मं श्रीवैद्यनाथं तमहं नमामि श्रीवैद्यनाथं तमहं नमामि याम्ये सदंगे नगरे तिरम्ये विभूषितांगं विविधैश्च भोगैः सद्भक्तिमुक्तिप्रदं ईशमेकं श्रीनागनाथं शरणं प्रपद्ये श्रीनागनाथं शरणं प्रपद्ये महाद्रिपार्श्वे च तटे रमन्तं संपूज्यमानं सततं मुनीन्द्रैः सुरासुरैर्यक्ष महोरगाद्यैः केदारमीशं शिवमेकमीडे केदारमीशं शिवमेकमीडे सह्याद्रिशीर्षे विमले वसन्तं गोदावरी तीर पवित्र देशे यद्दर्शनात् पातकं आशुनाशं प्रयातितं त्र्यंबकं ईशमीडे प्रयातितं त्र्यंबकं ईशमीडे सुताम्रपर्णी जलराशियोगे निबध्यसेतुं विशिखैरसंख्यै श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि रामेश्वराख्यं नियतं नमामि यं दाकिनी शाकिनिका समाजैः निषेव्यमानं पिशिताशनैश्च सदैव भीमादि पदप्रसिद्धं तं शङ्करं भक्तहितं नमामि तं शङ्करं भक्तहितं नमामि सानन्दमानन्दवने वसन्तम् आनन्दकन्दं हतपापवृन्दं वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये इडापुरे रम्य विशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यं वन्दे महोदारतरस्वभावम् कृष्णेश्वराख्यं शरणं प्रपद्ये ज्योतिर्मय द्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण स्तोत्रं पठित्वा मनुज्योतिभक्त्या फलं तदालोक्य निजं भजेच्च फलं तदालोक्य निजं भजेच्च